ॐ नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। मैत्रेय उवाच, निशम्यगततामेव मृषीणां धनुषि ध्रुवः, सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितं, सन्धीयमान एतस्मिन् मायागुह्यकनिर्मिताः, क्षिप्रं विनेशुर्विदुरक्लेशाज्ञानोदये यथा। तस्यार्षास्त्रं धनुषि प्रयुञ्जतः, सुवर्णपुङ्खाः कलहंसवासतः, विनिसृता आविविशुद्विषद्बलं यथावनं भीमरवाशिखण्डिनः। तैस्तिग्मधारैः प्रधने शिलीमुखैरितस्ततः पुण्यजना उपद्रुताः, तमभ्यधावन् कुपिता उदायुधाः, सुपर्णमुन्नद्दफणा इवाहयः। सतान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान्, निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरे ततः। तान् हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः, औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः। मनुरुवाच, अलं वत्सातिरोषेण तमोद्वारेण पाप्मना, येन पुण्यजना नेता नवधीस्त्वमनागसः, नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम्, वधो यदुपदेवानामारब्धस्ते कृतैनसाम्, नन्वे कस्यापराधेन प्रसङ्गाद् बहवो हताः, भ्रातुर्वधापितप्तेन त्वयाङ्गभ्रातृवत्सल, नायं मार्गो हि साधूनां ऋषिकेशानुवर्तिनां, यदात्मानं पराग्रह्य पशुवद्भूतवैशसं, सर्वभूतात्मभावेन भूतावासं हरिं भवान्, आराध्यापदुराराध्यं विष्णोस्तत्परमं पदम्, सत्त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः, कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम्, तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु, समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति, सम्प्रसन्ने भगवते पुरुषः प्राकृतैर्गुणैः, विमुक्तो जीवनिर्मुक्तो ब्रह्मनिर्वाणमृच्छति, भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि, तयोर्व्यवायात् सम्भूतिर्योषित्पुरुषयोरिह, एवं प्रवर्तते सर्गः स्थितिः संयम एव च, गुणव्यतिकराद्राजन्मायया परमात्मनः, निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः, व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत्, सखल्विदं भगवान् कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः, करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या, सोऽनन्तोऽन्तकरः कालो नादिरादिकृतव्ययः, जनं जनेन जनयन् मारयन् मृत्युनान्तकम्, न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः, तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलम्भूतसङ्घाः, आयुषोपचयं जन्तोस्तथैवोपचयं विभुः, उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ, केचित् कर्म वदन्त्येनं स्वभावमपरे नृप, एके कालं परे दैवं पुंसः काममुता परे, अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च, न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम्, न चैते पुत्रकभ्रातुर्हन्तारो धनदानुगाः, विसर्गादानयोस्तात पुंसो दैवं हि कारणम्, स एव विश्वं सृजति स एवावतिहन्ति च, अथापि यनहङ्कारान्नाज्यते गुणकर्मभिः, एष भूतानि भूतात्मा भूतेशो भूतभावनः, स्वशक्त्या मायया युक्त सृजत्यस्ति च पाति च, तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम्, यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसितामयन्त्रिताः, य पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा, वनं गतस्तपसा प्रत्यगक्षमाराध्यलेभे मूर्ध्निपदं त्रिलोक्याः, तमेन मङ्गात्मनिमुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम्, आत्मानमन्विच्छ विमुक्तमात्मदृक् यस्मिन्निदं भेदमसत्प्रतीयते, त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्न समस्तशक्तौ, भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम्, संयच्छरोषं भद्रं ते प्रतीपं श्रेयसां परं, श्रुतेन भूयसा राजन्नगदेन यथामयम्, येनोपसृष्टात् पुरुषाल्लोक उद्विजते भृशं, न बुद्धस्तद्वशं गच्छेदिच्छन्न भयमात्मनः, हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतं, यज्जघ्निवान् पुण्यजनान् भ्रातृघ्ना नित्यमर्षितः, तं प्रसादय वत्सासु सन्नत्या प्रश्रयोक्तिभिः, न यावन्महतां तेजः कुलं नोऽभिभविष्यति, एवं स्वायम्भुवः पौत्र मनुषास्य मनुर्ध्रुवम् तेनाभिवन्दित साकम् ऋषिभिः स्वपुरम् ययौ। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे एकादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।